सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः अस्तु अम्ब
नमस्कारः भगिनी उमाकृष्ण
स्वागतम् उमाकृष्ण अस्तु अम्ब आरम्भं
करोतु
न वा अस्तु अन्य कोऽपि आम् भगिनि करोतु
I'm doing it for the first time.
Karatu bhagini, uttama. Uttama arambha.
Pathami samskritam
nityam vadami samskritam svayam
samyak
samyak vande samskritam asaram
samskritasya
prasaraya naityam sarvam dadamyaham संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुदं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रं संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्
उत्तमम् अम्ब इदानीम् उषा भगिनि भवती अपि करोतु पठामि आरम्भं करोतु भगिनि
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम् ॐ शान्ति शान्ति शान्तिः
श्रीगुरुभ्यो नमः हरिः ओम् बहु धन्यवादः अद्य द्विवारं कृतवन्तः धन्यवादः अम्ब धन्यवादः उषा भगिन्या अस्तु आरम्भं कुर्मः अद्यतनविषयः अस्ति पञ्चमी विभक्ति खलु पञ्चमी विभक्तिं एकवारं पश्यामः पञ्चमी विभक्तेः लक्षणं किम् इति अस्ति चेत् पुल्लिङ्गे अकारान्तपुल्लिङ्गे अकारान्तनपुंसकलिङ्गे आत् इति भवति रामात् वृक्षात् इति ज्ञानात् पुस्तकात् कार्यानात् इति स्त्रीलिङ्गे याः इति भवति याः रमा रमायाः मति मत्याः गौरी गौर्याः धेनु अत्र वा भवति धेन् वाः वधु ऊ अस्ति चेत् वा अस्ति अथवा ओ अस्ति धेन्वोः इति भवति ऋकारान्तपदम् अत्र अपि ई इदानीं पुल्लिङ्गं प्रति गच्छामः पुल्लिङ्ग अस्ति चेत् ई अस्ति चेत् ए भवति हरेः एवमेव मति अस्ति चेत् पुल्लिङ्गवत् ए भवति मतेः अतः इकारान्तपदमस्ति चेत् विकल्प अस्ति द्वयं रूपद्वयम् अस्ति स्त्रीलिङ्गवत् याः मत्याः पुल्लिङ्गवत् एः मतेः इति भवति आकारान्तस्त्रीलिङ्गे विकल्पः नास्ति याः एव ईकारान्तस्त्रीलिङ्गे अपि याः एव विकल्पः नास्ति एकमेव रूपम् एवमेव उकारान्तपदम् इति अस्ति चेत् गुरु गुरोः एकमेव रूपम् उकारान्तस्त्रीलिङ्ग एकनिमिषं ध्वनिः अस्ति अस्तु उकारान्तपदम् अस्ति चेत् स्त्रीलिङ्गे धेनोः इति भवति धेनोः अत्र वा न आगच्छति धेनोः मतेः धेनोः गुरोः स्वरेः इव. पुल्लिङ्गवत् वदामः चेत् अत्र या वा इति नास्ति, मतेः धेनोः इति भवति. परन्तु स्त्रीलिङ्गवत् वदामः चेत् मत्याः ई अस्ति चेत् या भवति, ऊ अस्ति चेत् वा भवति, धेन्वाः मत्याः इति. अग्रे ऊकारान्त अस्ति, ऊकारान्त अस्ति चेत् पुल्लिङ्गवत् न भवति. किमर्थम् इत्युक्ते पुल्लिङ्गे दीर्घ ऊ अन्तपदं नास्ति, ऊ अन्तपदं नास्ति, अतः धेन्वोः एव, धेन्वोः एव भवति. व इति अस्ति परन्तु वो भवति, धेन्वोः इति भवति. अस्तु, ऋकारान्ते पितुः पितृभ्यां पितृ ऊः भवति, पितुः मातुः. अत्र पञ्चमी षष्ठी समानरूपं भवति, पञ्चमी षष्ठी समानरूपं भवति. अस्तु वा, गुरोः पञ्चमी पञ्चमी षष्ठी समानरूपं भवति. परन्तु अकारान्तपुल्लिङ्गे न, अकारान्तपुल्लिङ्गे अकारान्तनपुंसकलिङ्गे समानरूपं नास्ति, परन्तु अन्य सर्वत्र समानरूपं. सुलभः खलु? वयं पञ्चमी जानीमः चेत् षष्ठी अपि समानमेव भवति. गुरोः, धेन्वोः, धेन्वाः इत्यादीनि रूपाणि एवमेव भवति. अस्तु, इदानीं द्विवचनं पश्यामः. द्विवचनमस्ति चेत् बहु सम्यक्, भ्यां भ्यां भ्याम् एव, सर्वत्र भ्याम्. षष्ठी विभक्त्यां न, परन्तु अत्र पञ्चमी भ्यां भ्यां भ्याम्, मूलरूपं भ्यां, मूलरूपं भ्यां, मूलरूपं भ्यां, सर्वत्र तथा एव. परन्तु अकारान्तपुल्लिङ्गे अकारान्तनपुंसकलिङ्गे आभ्याम् इति भवति. राम इति मूलरूपं परन्तु आभ्याम्, ज्ञान इति मूलरूपं परन्तु आभ्याम्, अपि च एभ्यः इति भवति, एभ्यः आभ्याम् एभ्यः, आभ्याम् एभ्यः, पुल्लिङ्गे नपुंसकलिङ्गे समान पैटर्न् अस्ति, आभ्याम् एभ्यः इति. अस्तु, परन्तु अन्य सर्वत्र मूलरूपं भ्यां, मूलरूपं भ्यः, बहु सुलभः. रमा रमाभ्यां रमाभ्यः, मति मतिभ्यां मतिभ्यः, वधू वधूभ्यां वधूभ्यः, ह्रस्व अस्ति चेत् ह्रस्व, दीर्घ अस्ति चेत् दीर्घ. पुल्लिङ्गे नपुंसकलिङ्गे सर्वत्र गुरु गुरुभ्यां गुरुभ्यः, पितृ पितृभ्यां पितृभ्यः, मातृ मातृभ्यां मातृभ्यः, मधु. अत्र एकवचने नकारः आगच्छति, वारिणः मधुनः इति. परन्तु द्विवचने बहुवचने भ्यां भ्यः एव. अस्तु, इदानीं सर्वनामपदं यथा एवमस्ति, रामात् रामाभ्यां रामेभ्यः. सो इट् फालोस् द अकारान्त पुल्लिङ्गशब्दः. तस्मात् ताभ्यां तेभ्यः, तस्मात् ताभ्यां तेभ्यः, एवमेव कस्मात् काभ्यां केभ्यः इति भवति. सर्वस्मात् सर्वाभ्यां सर्वेभ्यः इति भवति. स्त्रीलिङ्गे रमायाः रमाभ्यां रमाभ्यः, तस्याः ताभ्यां ताभ्यः, तस्याः ताभ्यां ताभ्यः, तस्मात् ताभ्यां ताभ्यः तेभ्यः अपि पुल्लिङ्गवत् एव भवति. अस्तु, भवत् शब्दः, भवत् शब्दः भिन्नरूपम्. भवतः, भवतः नाम किं? प्रथमवाच्यं खलु, प्रथमं वयं तदेव पठितवन्तः. सो अत्र षष्ठी विभक्ति पञ्चमी विभक्ति समानं भवति, षष्ठी भवतः पञ्चमी अपि भवतः. अत्र अपि भ्यां भ्यः, भवद्भ्यां भवद्भ्यः, भवती भवति इति गौरी इव गौर्याः गौरीभ्यां गौरीभ्यः अत्रापि भवत्याः भवतीभ्यां भवतीभ्यः अहम् अस्मद् शब्दः मत् आवाभ्याम् अस्मत् मत् आवाभ्याम् अस्मत् अस्तु प्रश्नः अस्ति वा अस्तु अभ्यासमेव आवश्यकम् अस्तु अग्रे इदानीं वयम् इतः आरम्भं कुर्मः नो चेत् एतत् पुनस्मारणं कृत्वा अस्तु आवरणे दत्तानां पदानां पञ्चमी बहुवचनान्तरूपेण रिक्तस्थानानि पूरयत संस्कारयुक्तशिक्षणं दुष्टसन्ततिः समाजं रक्षति सो अत्र रक्षति इति क्रियापदम् अस्ति चेत् कस्मात् रक्षति इति ज्ञात्वा तस्य पदस्य पञ्चमीविभक्तिरूपं योजनीयम् कस्मात् रक्षति दुष्टसन्ततिः सो अत्र कथम् आगच्छति रूपाणि दुष्टसन्ततिः इकारान्तपदम् इकारान्तपदमस्ति चेत् एवं भवति खलु पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपं भवति कथं भवति सन्ततिभ्यः सम्यक् दुष्टसन्ततिभ्यः दुष्टसन्ततिभ्यः सो अत्र बहुवचनमेव अपेक्षते एक्स्पेक्टेड् ओन्लि बहुवचनम् दुष्टसन्ततिभ्यः त्रीणि रूपाणि कानि उदाहरणार्थं पृच्छामि भगिनि त्रीणि रूपाणि कानि अस्तु सन्ततितः अथवा सन्ततेः सन्ततिभ्यां सन्ततिभ्यः सो अत्र मूलरूपं स्वीकृत्य सन्तति भ्याम्
सन्तति पुंलिङ्गं वा
सन्तति उत्तमप्रश्नः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इदानीं रूपम् एकमेव अस्ति सन्ततिभ्यः
परन्तु एकवचनं
विकल्पः भवति उत्तमप्रश्नः अहं पश्यामि इदानीं सन्ततिः अहं चिन्तयामि स्त्रीलिङ्ग इति सन्तति
सन्तति कुड् बि मास्कुलिन् अस् वेल् अस् फेमिनिन्
स्त्रीलिङ्गम्
चैल्ड् इति रेस् अपि स्त्रीलिङ्ग अस्ति
ग्राण्ड् चिल्ड्रन् द लेगसि
लीनियेज् या
लीनियेज्
लीनियेज् सन्तति स्त्रीलिङ्ग सर्वदा पश्यन्तु भवन्तः अपि स्त्रीलिङ्गं वा पुल्लिङ्गं वा सन्देहः अस्ति चेत् तथा एव पश्यतु अस्तु सन्ततिः स्त्रीलिङ्ग अतः विकल्पः भवति खलु कथं भवति
तस्याः
न न तस्याः मीन्स् हर् खलु हर्
ओ ऐ सि
पञ्चमी विभक्ति
फ्रोम् नो
From. Oh, yeah. Panchami means from. Correct.
Yeah. So, tasyaha is also shashti. So, that's why it depends on the sentence, right?
Nishchayana.
So, here, dushta santatihi. So, I was trying to use the word so in Sanskrit. So
atah
santati strilinga strilingi
correct strilinge asti atah
ikarant
strilinga padam
santatyah
samyak दुष्टसन्तत्याः समाजं रक्षति अथवा दुष्टसन्ततेः समाजं रक्षति रूपद्वयम् अस्ति एकवचने एकवचने रूपद्वयम् अस्ति अस्तु सम्यक् सो अत्र एतत् स्त्रीलिङ्गपदम् अस्तु दधि स्त्रीलिङ्गं वा पुल्लिङ्गं वा दधि अन्य कोऽपि वदति वा प्रथमं वयं मिलित्वा कृतवन्तः उदाहरणार्थम् इदानीं वयं एकमेकं कुर्मः वा अस्तु का आरम्भं करोति केतकि भगिनी करोति वा प्रथमम्
आं भगिनि
अस्तु
संस्कारयुक्तशिक्षणं द्वितीयम्
अस्तु तत् अभवत् द्वितीयं करोतु
धनेभ्यः दधिभ्यः उत्तमं नवनीतं प्राप्नुमः
सो अत्र दधि इति अस्ति दधि सो दधि इति कीदृशपदं लिङ्गं किं
दधि स्त्रीलिङ्ग्
नदी न दधि दधि
इकारान्त न अस्ति वा
इकारान्त परन्तु लिङ्गं किम् अत्र बहु मुख्य पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा
दधि स्त्रीलिङ्गं
नपुंसकलिङ्ग दधि
दधि नपुंसकलिङ्ग
दधि दधि नपुंसकलिङ्ग एकवारं पश्यामः वा अस्तु
नपुंसकलिङ्ग
सो नपुंसकलिङ्ग अस्ति चेत् रूपं कथं भवति
वारिभ्यः वधूभ्यां नदी
दधिभ्यां दधिभ्यः रूपम् एवम् अस्ति दधिनः दधिभ्यां दधिभ्यः इति
भगिनी मधुन् धुन् शब्द मधुन् नपुंसकलिङ्ग अस्ति तस्य कारणेन
न न मधु इति उकारान्तपदं दधि इति इकारान्तपदम्
भगिनि वारिणः मूलपदं
वारि
अस्ति
अस्तु भगिनि
अस्तु
So like that it is dadhi will become dadhinaha.
Dadhinaha.
Vari is naha, nakara. Here it is nakara.
Na eva, na. Dadhinaha.
Parantu vari becomes vari naha, nakara, no? Vari.
Na, because of the ra there.
Okay.
Ra, r, sha. Asti shet ra bhavati. अस्तु सो इदानीं केतकि भगिनी रूपाणि वदतु दधिनः
दधिनः दधिभ्यां दधिभिः
सम्यक् दधिभिः आगच्छति चेत् विभक्ति का
बहुवचन
बहुवचनं बट् इट् बिकम् तृतीया सो अत्र भ्यः चतुर्थी पञ्चमी भ्यः भवति
रामेभ्यः
उत्तमं नवनीतं प्राप्नुमः धने अस्तु अस्तु सम्यक्
धन्यवादः
धन्यवादः भगिनि अस्तु अम्ब वक्तुमिच्छति वा अम्बा अस्ति अस्तु अन्ये के सन्ति इति लिखामि मालती भगिनी तूष्णीमिति उक्तवती सन्ध्या भगिनी शारदा भगिनी
But Bhagini, first to determine whether it is Pumlingam or Strilingam is essential. So here Trina Rashi, Rashihi will be the Moolapada,
Rashi. So Rashi iti Pullingam va Strilingam va?
Aham na janami.
Astu. Astu. Pashyamaha tari. Pashyamaha. पुल्लिङ्ग राशि अस्तु इदानीं ओके अस्तु अम्ब नास्ति सविता भगिनि वदति वा सविता
आं भगिनि आं भगिनि तृणराशिभ्यः किञ्चित् तृणम् आनय
भ्यः सम्यक् भ्यः तृणराशिभ्यः इदानीं
किञ्चित् तृणम् आनय
आनय पुल्लिङ्गपदम् अतः त्रीणि रूपाणि कानि सम्यक् तृणराशेः राशिभ्यां राशिभ्यः
राशिभ्यः
सम्यक् अस्तु अग्रे उषा भगिनी
आं भगिनि तृणराशिः एकवचनं
राशिः एकवचनं
अहिः अहिः जनाः भीताः
पश्यामः अहि अहि नास्ति इति मन्ये ओ अहिंस
अहिः अस्ति
सर्पः नेक्
ओके
अहि अहि अस्ति चेत् स्नेक्
ओ So it is Pumlingam.
Pullingam, samyak.
Ahihi, ahehe, janaha, bhitaha.
Bhitaha, ahehe, janaha, bhitaha.
Ahibhyam. Ahibhyaha.
Ahibhyaha, samyak.
It's only one snake, right? Janaha is plural. And therefore, bhitaha is also plural.
Samyak.
Okay.
Janaha bhitaha, samyak. Astu, agre, Uma Krishnan Bhagini. Pautri.
Bhagini. Pautri rithe matamahi karyakramam na gachati. It will be pautribhyaha.
अत्र पौत्री इति अस्ति कीदृशपदं
स्त्रीलिङ्गपद
ईकारान्त स्त्रीलिङ्गपद पौत्रीभ्यः सम्यक् पौत्रीभ्यः सम्यक् भगिनि पौत्रीभ्यः सो अत्र ईकारान्तपदम् अस्ति चेत् विकल्पः नास्ति एकमेव रूपं भवति खलु एकवचने एकमेव रूपं भवति पौत्री पौत्र्याः पौत्र्याः पौत्रीभ्यां पौत्रीभ्यः सो अत्र आकार ईकारान्त अस्ति चेत् बहु सुलभः आकारान्त पदमस्ति चेत् किञ्चित् चिन्तनम् आवश्यकं किमर्थम् इत्युक्ते माता इति अस्ति स्त्रीलिङ्गपदं परन्तु मातायाः इति न वक्तुं शक्नुमः किमर्थम् इत्युक्ते ऋकारान्तपदम् एवमेव पिता अस्ति चेत् पितायाः इति सम्यक् नास्ति परन्तु ईकारान्त अस्ति चेत् बहु सुलभः निश्चयेन ईकारान्त स्त्रीलिङ्गः एव इति वक्तुं शक्नुमः अस्तु अग्रे सन्ध्या भगिनि
मातरः शिशुभ्यः क्षीरकूपीं स्वीकृतवत्यः
सम्यक् शिशु वदतु भगिनि त्रीणि रूपाणि पुल्लिङ्गं वा स्त्रीलिङ्गं वा तत्सर्वं वदतु कृपया
शिशु शिशोः शिशुभ्यां शिशुभ्यः
सम्यक् शिशुः इति उकारान्त पुल्लिङ्ग शिशु शब्दः
स्त्रीलिङ्ग पुल्लिङ्ग च एकमेव पैटर्न अस्ति भगिनि
अस्तु अस्तु पेटर्न् अहमपि अस्तु अस्तु सम्यक् अस्तु एकवारं पश्यामि अहमपि पेटर्न् एव वदामि पेटर्न् प्रकृति
प्रकृति
एकमेव प्रकृतिः अस्ति प्रकृति इति अस्ति परन्तु प्रकृतिः अस्ति अस्तु धन्यवादः अस्तु अग्रे शारदा भगिनि
आं भगिनि महाराजः पुंलिङ्गपदं गूढचारः महाराजेभ्यः भीताः अभवन् महाराजेभ्यः महाराजेः महाराजाभ्यां महाराजेभ्यः
अस्तु पुनः वदतु भगिनि एकवचनं द्विवचनं बहुवचनम् इति क्रमेण वदतु
महाराजेः
अत्र महाराजात् इति भवति अकारान्तपुल्लिङ्गपदं वृक्षात्
महाराजात् महाराजाभ्यां महाराजेभ्यः
सम्यक् गीताः अभवन् अस्तु अग्रे अन्य कोऽपि अस्ति वा न इति चिन्तयामि अस्तु एते किं भगिनि
आं भगिनि रामः विभीषणं पृष्ठभाता रक्षितवान् रामः विभीषणं पृष्ठभ्राताभ्यः कै भगिनि भ्यः
न भगिनि किमर्थम् इत्युक्ते भ्राता इति अस्ति चेत् कीदृशपदम्
ऋकारान्तपदम्
ऋकारान्त सम्यक्
ऋकारान्त लैकं पितृ मातृ
सम्यक् सम्यक् इदानीं वदतु
पात्र भ्राता आगच्छति
भ्रातुः इति भवति
भ्रातुः
दुष्टभ्रातुः अनन्तरं मूलरूपं भ्यां मूलरूपं भ्यः कथं भवति
भ्रातु भ्रातुभ्यः भ्रातुभ्यां भ्रातुभ्यः
भ्रातृभ्यः
भ्रातृभ्यः न प्रथमं भ्रातुः
भ्रातुः
भ्रातुः भ्रातृभ्यां भ्रातृभ्यः
सम्यक् भ्रातुः भ्रातृभ्यां भ्रातृभ्यः सम्यक् अस्तु धन्यवादः भगिनि अम्ब वक्तुम् इच्छति वा तूष्णीं भवति वा अस्तु
द्विजे
अस्तु,
अत्र अपि दुहिता अपि दुहितृ
दुहितृ दुहिताभ्यां दुहितृभ्य
दुहितृभ्यां दुहितृभ्यः एकवचनं कथं भवति?
दुहितु
दुहितुः विसर्गः दुहितुः ऋते दुहितुः तस्याः अन्यबान्धवाः के? अन्य नास्ति if not, if not for her, like that. Deva trite kova mam rakshati.
Deva vite.
Deva trite. If not for God, who is going to save us?
So here it is, if Duhitru is what?
Duhitru means it's actually
daughter.
Daughter, daughter.
Oh, okay.
अस्तु, अग्रे अग्रे सविता भगिनी.
आं भगिनि, कर्मकराः कार्यालयः बहिः स्थितवन्तः सन्ति. कर्मकराः कार्यालयाभ्यः बहिः स्थितवन्तः सन्ति.
सो कार्यालयः अकारान्त पुल्लिङ्गपदं खलु? कार्यालयेभ्यः
बहिः स्थितवन्तः सन्ति.
सम्यक् सम्यक्. इदानीं त्रीणि रूपाणि वदतु कृपया.
कार्यालयात् कार्यालयाभ्यां कार्यालयेभ्यः.
सम्यक्.
भगिनी, ऐ गाट् अ लिटल् कन्फ्यूस्ड् हियर्. कार्यालयः बहिः, सो वि आर् यूसिङ्ग् बहुवचनं पञ्चमी. Because it is santi. It's the plural.
No, because that is what the instruction says. Bahuvachana roopam vadatu iti.
Yeah, but the sentence itself, they didn't say that. Now I understand what you're saying, but if I saw the sentence without that instruction, how would I determine whether I'm going to use it in ekavachanam or bahuvachanam?
No, we cannot tell.
Oh, I see. Because karmakaraha means karyalayat. Karmakaraha is karyalayat.
Karyalayat bahihi sthitavantaha samyakeva. Karyalayabhyam karyalayebhyaha api samyakeva. अस्तु, अग्रे गच्छामः. अग्रिमम् अस्ति, प्रश्नः अस्ति वा? पञ्चमी विभक्ति एकवारं झटिति पश्यामः. कुत्र उपयोगं करणीयं पञ्चमी इति? पञ्चमी इति विभागः. विभागः इत्युक्ते सेपरेशन्. विभागः अस्ति चेत् यस्मात् विभागः भवति तस्य पञ्चमी विभक्तिरूपं भवति. वृक्षात् पर्णं पतति. कस्मात् पर्णं पतति? वृक्षात् इति. सो अत्र प्रथमनियमः एतत् एव. अस्तु, अग्रिमं किम्? अग्रे भीतिः इति अस्ति चेत् यस्मात् भीतिः तस्य पञ्चमीविभक्तिरूपं भवति. यस्मात् भीतिः, यस्मात् रक्षणं भवति. यस्मात् रक्षणं भवति तस्यापि पञ्चमीविभक्तिरूपं भवति.
यस्मात् इत्युक्ते
फ्रम् विच्?
ओ, यस्मात् अगेन् इस् दि पञ्चमी विभक्ति.
यस्मात्,
यस्मात् 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 इस् दि मूलपदम्?
नो, इट्स् लैक् सेयिङ्ग् वेन् वि से यः सः.
Yeah, okay. So for Yaha it will be Yasmat.
Yasmat.
So from whom?
Samyak. यस्मात् इति, यस्मात् रक्षणं, यस्मात् भीतिः, यस्मात् विभागः भवति, तस्य पदस्य पञ्चमी विभक्ति रूपम्। अपि च बहिः, यस्मात् बहिः अस्ति, यस्मात् आरभ्य, गुरुवासरात् आरभ्य, यस्मात् ऋते, यस्मात् पूर्वः परः, पूर्वं परः इति, पूर्वं परः, एतानि पदानि आगच्छन्ति चेत् पञ्चमी विभक्तिरूपं भवति। तावदेव, अस्तु अग्रे गच्छामः। षष्टिविभक्ति वयं सम्यक् जानीमः इति चिन्तयामि। प्रथमनियमः अस्ति सम्बन्धम्। यत्र सम्बन्धः दृश्यते तस्य पदस्य षष्टिविभक्तिरूपं भवति। लेखनी, कस्य लेखनी? रामस्य लेखनी। सम्बन्धवाचकस्य पदस्य षष्टिविभक्ति भवति। यस्य लेखनी, यस्य सम्बन्धः अस्ति, एकं वस्तु अस्ति, वस्तु यस्य सम्बन्धः भवति? रामस्य। मम, भवतः, भवत्याः, कस्य लेखनी, कस्याः लेखनी इत्यादि। अस्तु, इदानीं रूपाणि पश्यामः एकवारम्। रामस्य ज्ञानस्य तृतीयविभक्ति आरभ्य पुल्लिङ्गे नपुंसकलिङ्गे समानरूपं भवति। रामस्य, रामस्य इदानीम् एकवचनमेव पश्यामः, रामस्य। परन्तु पञ्चमी विभक्तेः रूपं किम् अस्ति? तदेव षष्टिविभक्तेः अपि, इत्युक्ते हरेः, पत्युः इति, पतिः इति अन्यपदम् अस्ति, तस्य रूपाणि भिन्नं भवति, भिन्नानि भवन्ति। पत्युः, पत्योः, पतीनां, पत्युः इति भवति, पतिः, मम पत्युः नाम, मम पतेः नाम इति सम्यक् नास्ति, मम पत्युः नाम मोहनः इति, पत्युः। अस्तु, अतः एव प्रथम इन् द फस्ट् लेवल् वि डोण्ट् से पतिः, वि से आर्यपुत्रः, आर्यपुत्रः मीन्स् हस्बेण्ड्, आर्यपुत्रः, आर्यपुत्रस्य नाम इति वदामः। अस्तु, सो अत्र एकवचनं पञ्चमी विभक्तिरूपवत् एव अस्ति। गुरोः, पितुः, गौर्याः, धेन्वाः, धेनोः वयं जानीमः। द्विवचने सर्वत्र योः अस्ति, योः अथवा वा वोः, गुर्वोः, हर्योः, पित्रोः, ओः, योः, वोः, ओः इति। रमायाः, रमयोः, ह्रस्वं भवति, रमयोः, मतेः, मत्योः, किमर्थम् इत्युक्ते यकार ई अस्ति चेत् य भवति, मत्याः, मत्योः, मतीनां, गौर्याः, गौर्योः, धेन्वाः, धेन्वोः, ओः, योः इति भवति, मात्रोः, सर्वत्र ओः, योः, वोः, नोः। एकवचने किम् अस्ति? तत् स्वीकृत्य ओः, वारिणः, वारिणोः, मधुनः, मधुनोः इति भवति। अपि च बहुवचने सर्वत्र नाम, 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 पितॄणां, गौरीणां, णाम् अथवा नाम, धेनूनां, वधूनां, मातॄणां, नाम, 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 सर्वत्र ओः, योः, वोः मध्ये द्विवचने, एकवचनं पञ्चमी वत् एव भवति। अकारान्त पुल्लिङ्ग अकारान्त नपुंसकलिङ्ग विहाय विहाय मीन्स् एक्सेप्ट् विहाय एवमेव भवति. नूतनरूपमस्ति पत्युः, पतिः इति विशिष्टपदम्, एक्सेप्शनल् पदं, विशेषपदं. सो अतः पत्युः इति भवति. सर्वनामपदं तस्य, तयोः, तेषां, शां भवति, ना न भवति, शां भवति. तस्य, तयोः, तेषां, तस्याः, तयोः, तासां, सां भवति तत्र, तासां. कस्य, कयोः, केषाम्, अस्तु. भवत् शब्द भवतः, भवतोः, भवताम्, भवतोः, भवताम्, भवत्याः, भवत्योः, भवतीनाम् इति अस्ति. प्रश्नः अस्ति वा? इदानीं नास्ति, परन्तु अग्रे पश्यामः, आगच्छति तत्.
एकः प्रश्नः अस्ति भगिनि.
अस्तु.
तत्र पति एव भिन्नः अस्ति अथवा अन्यशब्दानि अपि?
अहं यत् जानामि तत् वदामि. पतिः एव, पतिः एव.
अस्तु भगिनि, धन्यवादः.
आर्यपुत्रः इस् यूशुलि यूस्ड् ओन्लि फार् द वारियर् क्लास्. वाट् विल् दे काल् फार् टीचर् क्लास्
इन् जनरल्? दिस् इस् वाट् ऐ नो. फार् हस्बेण्ड्, इफ् यु वाण्ट् टु यूस् इन् अ सेण्टेन्स् इन् द फस्ट् लेवल्, मै हस्बेण्ड् नेम् इस्, मम आर्यपुत्रस्य नाम
I thought it was used only for warrior class. Otherwise, for the rest, also it's used Aryaputra.
Udaharanam Pashyamaha. Husband iti likitva kim asti iti. Aryaputra.
So it's not just for warrior class, it can be for anybody, right?
Yeah. So atra bharta api asti, bharta api rikaranta padam.
Bhartra.
We can say kanta, my lover or something. But kanta. Generally, kantasya. So this is what we say, Aryaputrah. So atra kimapi asti kali BV iti. BV iti vadamaha chai, basic vocabulary.
Even a hermit's wife would address her husband as Aryaputrah only, buddy.
Aryaputrah. Astu.
Dhanyavadah.
धन्यवादः. सो अत्र वयं जानीमः एतानि, परन्तु सम् थिङ्ग्स् वि डोण्ट् नो. उदाहरणार्थं प्रथमं कुतः दिलीपः गोविन्दस्य अनुजः. दिलीपः गोविन्दस्य अनुजः. गोविन्दः दिलीपस्य अग्रजः इति भवति. सो द्वितीयमस्ति श्रीधरः भागिनेयः. भागिनेयः इत्युक्ते भगिन्याः पुत्रः खलु, भगिन्याः पुत्रः. अस्तु, कुर्मः वा? केतकी भगिनी खलु अग्रे?
आम् महोदय, भगिनि.
सो अत्र केतकी भगिनी वा?
आम् आम् भगिनि.
नो नो, इन् दि एण्ड् हू डिड् द कार्यालयस्य?
नो, ऐ डिड् इट्.
यु डिड् द कार्यालय खलु?
ऐ डिड् द प्रीवियस् वन्.
प्रीवियस् वन्. सो
सविता भगिनी
डिड् द
कार्यालय. अस्तु, उषा भगिनी इदानीं. श्रीधरः दिलीपः श्रीधरस्य
श्रीधर श्रीधरस्य
भागिनेयः
भागिनेयः दिलीपः
श्रीधरस्य भागिनेयः दिलीपः
श्रीधरः श्रीधरस्य नो दिलीपस्य इट् वोण्ट् बि भागिनेयः देन् रैट्
नो
सो नेफ्यू
कथं भवति इट् बिकम्स् अङ्कल् खलु अङ्कल् इति वदामः चेत् कथं वदामः मातुलः मातुलः इत्युक्ते अम्बायाः सहोदरः मातुलः
ओके सो वेन् इट् इस् श्रीधरस्य भागिनेयः दिलीपः दिलीपस्य मातुलः श्रीधरः No, it's not like that, no? Sridharasya Matulaha Dilipaha.
Ah, Sridharasya Matulaha Dilipaha.
But why is the arrow pointing towards him from Sridhara and says Bhaginiyaha?
So, Atra, Punarekavaram Pashyamaha. So, Yeshaha Asti Dilipaha. दिलीपः गोविन्दस्य अनुजः इत्युक्ते गोविन्दः दिलीपस्य अग्रजः दिलीपस्य अग्रजः गोविन्दः दिलीपः श्रीधरस्य भागिनेयः इत्युक्ते श्रीधरस्य कथं भवति श्रीधरस्य
मातुलः दिलीपः
न श्रीधरस्य भागिनेयः दिलीपः भागिनेयः इत्युक्ते किं
मदर्स्
मदर्स् अम्बायाः भागिनेयः इत्युक्ते अम्बायाः
पुत्रः
पुत्रः अम्बायाः पुत्रः दिलीपः इदानीं श्री विपरीतदिशि वदामः चेत् दिलीपस्य मातुलः
मातुलः श्रीधरः
दिलीपस्य मातुलः श्रीधरः
सो दिलीप श्रीधरः इस् ओल्डर् पर्सन्
अत्रापि श्री अत्रापि गोविन्दः इस् दि ओल्डर् पर्सन् आल् दो द फिगर् इस् नाट् शोयिङ्ग् लैक् दट् इट् इस् कन्फ्यूस्
सो जामाता इस् अगेन्
सो अगेन् सो विल् गो टु द नेक्स्ट् पर्सन् ओके उमाकृष्णन् भगिनी
उमायाः now Jamata is son-in-law Uma yaha Jamata Dilipah
Uma yaha Jamata Dilipah Jamatr Jamatr
Jamatr
Jamatr
Dilipah Pirida Disha Dilipah
Dilipasya
Dilipasya
उमा सम्यक् सो अत्र अभ्यासपुस्तके अस्ति खलु अभ्यासपुस्तके एकवारं दर्शयामि कुतः इति न जानामि एकवारम् अत्र सो अत्र पश्यन्तु पुत्र्याः पतिः नारायणः नरसिंहः जामाता सो विपरीतदिशि कथं भवति श्वशुरः श्वश्रूः अम्बा अस्ति चेत् श्वश्रूः पिता जनकः अस्ति चेत् श्वशुरः श्वशुरः श्वश्रूः सो अत्र श्वश्रूः भवति खलु माता श्वश्रूः इति भवति श्वश्रूः इति अस्तु
भगिनी वुड् इट् बि पासिबल् फोर् यू टु सेण्ड् अस् द लिस्ट् आफ् दिस्
निश्चयेन इट्स् वेरि यूस्फुल् खलु वेरि
एक्स्ट्रीम्लि यूस्फुल् लिटिल् कन्फ्यूस्ड् अबौट् दिस् भागिनेयः एण्ड् मातुलः विच् डिरेक्षन् इस् इट् भगिनी भागिनेयः वुड् बि
अत्र पश्यतु भागिनेयः भगिन्याः पुत्रः भागिनेयी इस् भगिन्याः पुत्री सो भगिन् अत्र अपि मातुलः इस् मातुः भ्राता yeah it is confused so if you had a real life example that will be good
so that is mother's brother so matulah
is mother's brother yes
uncle
mama iti vadama kala mama
Oh, they're four sisters, but okay.
Yeah. Yeah, it is complicated. Udaharanam, I think Mahabharata has all these, Kalu. Mahabharata. Yeah. Can you wait 1 minute? I'll try to extract, okay? 1 minute. Ekam nimisham. Atra, ekam asti. हिन्दुवाचक कुत्र अस्ति हिन्दुवाच बन्धुवाचक 26.3 खलु
Fantastic, Bhagini. This is very useful.
Yeah, it is very useful. Udaharanartham, very complicated. Astu. Atra. Bhagineyah. Astu.
Abhimanyu. Krishnah. कृष्णस्य भागिनेयः अभिमन्युः अभिमन्योः मातुलः कृष्णः
अभिमन्योः अम्बाका सुभद्रा अभिमन्योः सुभद्रा अभिमन्योः अम्बा सुभद्रा
सुभद्रा
अभिमन्योः अम्बा सुभद्रायाः सहोदरः कृष्णः अतः कृष्णः अभिमन्योः मातुलः
सहोदरः
भ्राता अभिमन्योः भ्राता अभिमन्योः मातुलः कृष्णः कृष्णस्य सहोदर्याः पुत्रः अभिमन्युः, अतः कृष्णस्य भागिनेयः अभिमन्युः.
भगिनी, वेर् केन् वि फैण्ड् दीस् लैन्स्?
संस्कृतभारती स्लैड्स् भगिनि, ऐ एम् नाट् अलौड् टु यूस् इट् तावत्.
Giri?
So it is like this. So from this we can extract all the information.
Bhagini?
I'm Bhagini, vadatu.
Bhagini, kshamadam, I have to leave the class. Okay? Dhanyavada, Bhagini.
Dhanyavada.
Bhagini, you just showed the slide. Subhadra's name, is it spelled with Su or Sha?
You need to know. Atra Pashyam.
Subhadra.
Su Eva.
Su Eva. So I was wrong.
Subhadra.
Subhadra.
अस्तु. सो अत्र कुत्र मातुलः अभवत्, जामाता अभवत्, श्वश्रूः अभवत्. श्वश्रूः स्त्रीलिङ्गपदं, श्वशुरः पुल्लिङ्गपदं. माता अस्ति चेत् श्वश्रूः, जामाता अस्ति चेत्. अस्तु, अग्रे का वदति? सन्ध्या भगिनी खलु?
रमायाः देवरः दिलीपः. दिलीपस्य ब्रदर्स् वैफ्
परन्तु अत्र नास्ति देवरः इति पत्युः भ्राता. देवरः पत्युः भ्राता.
नाट् क्लियर्
परन्तु यथा सा उक्तवती, याता अस्ति चेत् किम् इति पश्यामः अत्र.
You can probably say Dilipasya Bhratu Patni Rama.
Sister-in-law, see?
Yata.
Brother's wife, Yata.
Okay. So Dilipasya Yata Rama.
Dilipasya Yata Rama. Come here. Bahu complicated color. Dilipasya Yata.
Very interesting, Bhagini. Very
useful to know. Useful to know, but we will keep forgetting it, Bhagini, all the time.
if we start using it in our daily life, associate
person
in our family with a word, then we won't forget.
History. Agree. Sharada, Bhagini.
नलिन्याः अग्रजः दिलीपः. दिलीपस्य अनुजा नलिनी.
अनुजा नलिनी. सुलभः, एतत् सुलभः. अस्तु, एतत् नास्ति. अम्बा अस्ति वा? दिलीपः नन्दिनी.
नन्दिन्या पुत्रः दिलीपः.
नन्दिन्याः पुत्रः दिलीप्यः. अस्तु, अग्रे विपरीतदिशि.
दिलीपस्य अम्बा नन्दिनी.
दिलीपस्य अम्बा नन्दिनी. सम्यक्, दिलीपस्य अम्बा नन्दिनी. अस्तु, सविता भगिनि.
भगिनि, वन् क्वश्चन्, सोरि, क्षम्यतां. सो वि दिलीपस्य भगिनी नलिनी.
दिलीपस्य अनुजा.
अनुजा, ओके.
अनुजा अग्रजः. अनुजा
अनुजा, ओके. But bhagini does not mean female.
Yeah, you can say bhagini also. Bhagini, sahodari, kimapi.
Nandini, Dilipasya, can we say Dilipasya Matu? No.
No.
Using
Mata.
Mata.
Mata, if you want. Dilipasya Mata Nandini. Matuhu means Matuhu Nama Nandini.
Okay. Now, Mata is Shashti?
Yeah, it is Shashti as well as Panchami, kalo.
Okay. Okay. I wasn't sure. Okay.
Yeah. Panchami Shashti Samana.
Hmm.
Dilipasya Mata Nandini. Matuhu iti vadati chet, Dilipasya Matuhu Nama Nandini.
No, Matuhu is also Panchami or Shashti?
Panchami as well as Shashti.
Okay. How are we getting Mata and Matuhu then? We use either Shashti or Panchami, is it? But if you use
Shashti, the Vacham changes. Dilipasya Matuhu Nama. You have to add something else for Shashti because Sambandha Sambandhe Shashti. So you cannot just say Dilipasya Matuhu. Matuhu what? Like mothers. If you just say Dilipa.
Nama. So we have to add Nama.
Yeah, you have to add something. You have to add
Nama Nandini.
Nandini.
And if you use Panchami, it is
Dilipasya Matuhu. Again it is Panchami. Dilipasya Matuhu. Aham Swikaromi. Dilipasya Matuhu Aham Lekanim Swikaromi. From her I'm taking a Lekani.
Mm-hmm.
It's like saying Dilipasya Ambataha Lekanim Swikaromi. Dilipasya Matuhu Lekanim Swikaromi.
Mm-hmm.
Panchami. Then it becomes Panchami.
But right now we are doing Shashti. So it should be Mata. Dilipasya Mata Nandini.
Dilipasya Mata Nandini. Ast. Agree. Sharada Bhavat, Ketiki, Amba Bhavat, Savita.
Bhagini, Anujasya Putri, is there a word?
Anujasya.
Because Sita Yaha, Pitravyaha, Dilipasya, what, Bhagini, Sita?
Pitravyaha, it took take him.
Father's elder brother.
Actually, Pitruvyaha, it is elder brother va, younger brother va, na janima. Pituhu brata. Tavateva. Pituhu brata.
Oh, okay.
So if it is Pituhu Brata, what will be the opposite way?
Brother's daughter.
Bratuhu Putri. Bratuhu Putri. Bratuhu Putri पश्यामि भ्रातुः पुत्री भ्रातृजः इत्युक्ते अर्जुनः एण्ड् भीमः
No brother has putri.
No, like Lakshmanaha and Lavaha, for example.
Putri, putraha only.
Lakshmanaha, Lavaha. Lavaha, Lakshmanaha,
Bratrujaha.
Lavasya, Pritrujaha.
Bratrujaha and what is it?
Bratrijah. Lakshmanasya
Bratrijah Lavah. Girl means it will be Bratrijah.
Bratrijah.
Yes, Bhagini, brother's daughter.
अत्र भ्रातृज इदानीं स्त्रीलिङ्ग अस्ति अतः
दिलीपस्य भ्रातृजा सीता
भ्रातृजा सीता एवं भवति.
धन्यवादः.
धन्यवादः. अस्तु इदानीं श्रीकान्तः दिलीपः कस्य क्रमः उषा भगिनी खलु उषा भगिनी आवृत्तः इत्युक्ते कः भगिन्याः पतिः
ब्रदर् इन् ला ओके श्रीकान्तः
श्रीकान्तः
दिलीपः
श्रीकान्तस्य
श्रीकान्तस्य आवृत्तः दिलीपः दिलीपस्य आवृत्तः ओके आवृत्तः दिलीपः दिलीपस्य
आवृत्तः इत्युक्ते सिस्टर् हस्बेण्ड् खलु
ब्रदर् इन् ला इज़्न्ट् इट्
सिस्टर्स् हस्बेण्ड् इस् ब्रदर् इन् ला
right? ओके सो So he will be what? Dilipah, Dilipasya, Matulah.
Dilipasya.
Matulah, right?
Patyaha. Oh.
Patyaha brata. Patyaha brata. Oh, Vishyalah. Shyala sambandiras athai comes, no, in Bhagavad Gita. In chapter 1. Shyalah. Okay. So it is Dilipasya Shala, Shala, Shalaha, is it?
Srikantaha.
Shalaha, Shalaha. Shalaha, is it? Shalaha, Srikantaha.
Oh no, Shalaha. I
mean. So it is Shala.
Shalaha. Shalaha, Srikantaha. अस्तु अग्रे उमाकृष्णन् भगिनी देवकी दिलीपः
भगिनी वन् इन् हिन्दी श्याला इस् एक्चुलि दिलीप् दिलीप् ब्रदर् इस् श्याला
पुनः 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 वदतु भगिनी दिलीप्
दिलीपस्य दिलीप् वैफ् ब्रदर् इस् श्यालः दिलीपस्य पत्नीस्य भ्राता श्यालः
आम् तथा एव अत्र अपि तथा एव पत्न्याः भ्राता
पत्न्याः भ्राता
सो अत्र
शाला
ओ शाला
शाला
सो इन् हिन्दी इट्स् लैक् दिस् शाला पत्न्याः भ्राता इस् देर् सो वि गो बेक् हियर् रैट् पत्न्याः भ्राता अत्र नास्ति कुत्र अस्ति श्यालः श्यालः आवृत्तः कृष्णस्य पत्न्याः न कृष्णस्य भगिन्याः पतिः आवृत्तः अर्जुनस्य
पत्न्याः भ्राता
श्यालः कृष्णः
भगिनी हू इस् कृष्णस्
सुभद्रा
Subhadra's husband is Arjuna, okay.
Subhadra's husband is Arjuna. So Subhadrayah Sahodaryah Patihi Arjunah Avuttah.
Or Avuttah.
Avuttah. Arjunasya Patni Patnyah Sahodarah Shyalah.
भगिनि यदि पत्न्याः भगिनी अस्ति चेत् तर्हि वयं किं वदामः
पत्न्याः भगिनी न जानामि पत्न्याः भगिनी
मचिनी
पत्न्याः भगिनी
श्याली
भगिनी
In Hindi, it is Sali, so maybe.
Yeah.
Shali. I think people will understand if you say Shali.
Shala or Shali?
Shali Bhagini. If Subhadra Shali is given as brother, five sisters.
Oh, Shali? Oh.
Not Sa. Shali.
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 Okay, so I...
Shali.
अत्र शालः एव अस्ति
स्याली
न न अहं संस्कृतेन पश्यामि श्यालः ब्रदर् इन् ला इस् देर् परन्तु शाली नास्ति अहं शाली अस्ति वा इति पश्यामि शाली नास्ति
भगिनी ट्रै स्याली
ओ स्याली Syalah brothers, wife's brother. Syalah.
No, this is given as Syalai. I'm saying Syali.
Bhagini, Asti. Brother-in-law's wife api Asti.
Wife also, wife's sister also.
Dhaniwada, Bhagini, Dhaniwada. स्याली अपि अस्ति स्याली इति अस्ति चेत् वैफ् सिस्टर् अपि च ब्रदर् इन् लास् वैफ् अपि स्याली इट्स् लैक् सिस्टर् इन् ला वैफ् सिस्टर् इस् सिस्टर् इन् ला ब्रदर् इन् लास् वैफ् इस् आल्सो लैक् सिस्टर् इन् ला स्याली उत्तमं धन्यवादः अस्तु अग्रे एतत् कृतवन्तः खलु उमाकृष्णन्
भगिनी
वदतु भगिनी उमाकृष्णन् वदतु
देवकीयाः
देवक्याः पतिः
देवक्याः पति दिलीपः
दिलीपः
दिलीपस्य पत्नी देवकी
दिलीपस्य पत्नी देवकी अस्तु सम्यक् सन्ध्या भगिनी
रोहिण्याः पौत्रः दिलीपः दिलीपस्य
सो अत्र मेटर्नल् सन् पेटर्नल् सन् इति अस्ति खलु पेटर्नल् ग्राण्ड् मदर् मेटर्नल् ग्राण्ड् मदर् इति सो अत्र पौत्रः इति वदामः चेत् पुत्रस्य पुत्रः पुत्रस्य पुत्रः पौत्रः
दिलीपस्य पितुः माता
पितुः माता अतः पितामहि
पितामहि
सो बिकास् पितामहि इति ग्राण्ड् फादर् अस्ति चेत् पितामहः पितामहः पितामहि सो अत्र
Then
it will become Mata Mahi. So Atra, for them, for Suma and for Keshavaha, they are Mata Mahaha Mata Mahi.
Okay.
So they are Pita Mahaha Pita Mahi. Pita Mahaha Pita Mahi. मातामहः मातामहि पितामहः पितामहि एवमेव विपरीतदिशि इति बि पौत्रः पौत्री पौत्रः पौत्री बिकास् इट् इस् थ्रू द सन् थ्रू द डाटर् बिकास् डाटर् मीन्स् दुहिता रैट् दुहिता दौहित्री दौहित्रः
धन्यवादः
वेरि इण्ट्रेस्टिङ्ग् अस्तु सो ऐ थिङ्क् वि कवर्ड् आल् रिलेशन्शिप् ऐ थिङ्क् खलु पितामहः पितामही दुहिता दुहित्री अस्तु अस्तु अग्रे पाण्डवानाम् अस्तु उचितैः षष्ट्यन्तरूपैः रिक्तस्थलानि पूरयत् श्रीकृष्णः पाण्डवाः रक्षकः सो इदानीं बहुवचनरूपं बहुवचनं वा एकवचनं वा वयं दृष्ट्वा वदामः बहुवचनमेव इति अहं चिन्तयामि बहुवचनम् अस्ति चेत् सर्वत्र नाम् नाम् सर्वत्र नाम् नाम् णा णाम् एवमेव अस्ति अहं वयम् अस्ति चेत् अस्माकम् अस्माकम् अन्ये सर्वत्र नाम् एव आगच्छति अस्तु श्रीकृष्णः पाण्डवानां रक्षकः पाण्डवानां रक्षकः अस्तु सन्ध्या भगिनी सन्ध्या भगिनी अभवत् खलु शारदा भगिनी
धनिकानां गृहाणि उन्नतानि भवन्ति
धनिकानाम् अस्तु इदानीं त्रीणि रूपाणि वदतु भगिनी अभ्यासार्थं
धनिकस्य धनिकयोः धनिकानाम्
उत्तमम् अस्तु एतत् भगिनी नास्ति अम्ब जनाः
जनस्य
जनानां
रुचिः विभिन्ना भवति
विभिन्ना भवति रुचिः इति स्त्रीलिङ्गपदम् अतः विभिन्ना भवति जनस्य जनयोः जनानां सम्यक् सविता धन्यवादः अम्ब सविता भगिनी
बालकस्य बालकयोः बालकानां बालकानां कोलाहलेन अध्यापकः कुपितः
अध्यापकः कुपितः सम्यक् सम्यक् कुपितवान् कुपितः सो कुपितः इति त प्रत्यय अत्र विवरणं करोति त प्रत्यय अस्ति उषा भगिनी
भवन्तः व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः भवन्तः
भवान् इति अस्ति खलु भवत् शब्दः भवतः भवतोः भवताम्
ओके
भवतः भवतोः भवताम्
सो इट् इस् What am I doing here now?
आवरणे पदम् अस्ति खलु तस्य षष्टिविभक्तिरूपं योजयित्वा वाक्यं पूरयतु
भवतः व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः
परन्तु अत्र भवन्तः इति अस्ति. सो अत्र भवन्तः
भवतीभ्यः
न न न भवती भवति भवतो भवतीभ्यः इति पञ्चमी विभक्ति. इदानीं भवती भवती नाम इति भवति, परन्तु अत्र भवन्तः भवन्तः इत्युक्ते
भवतां
पुल्लिङ्गपदं भवन्तः इति पुल्लिङ्गपदं भवताम्
भवन्तः
भवतः भवतोः भवताम्
भवताम्
भवतः भवतोः भवताम्
भवतोः भवताम्
भवतां व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः. अस्तु, भूमा कृष्ण भगिनी.
वयं कार्यालये अस्माकं
अस्माकं त्रीणि रूपाणि वदतु. मम
मम आवयोः
सम्यक् मम आवयोः अस्माकम् अत्र विकल्पः अस्ति मे नौ नः, परन्तु साधारणतया मम आवयोः अस्माकमेव अहं सर्वत्र पश्यामि, परन्तु मे नौ नः अपि सम्यक् एव. मे नौ नः अस्माकं कार्यालयः सुविशालः अस्ति. अस्ति सु इत्युक्ते अधिक अधिकविशालः अस्ति, बहु विशालः अस्ति. अस्तु, सन्ध्या भगिनी.
भवतः इच्छिकाः गुच्छः कुत्र अस्ति? भवतः कुञ्चिकानां गुच्छः कुत्र अस्ति?
सम्यक्, कुञ्चिकानां गुच्छः कुत्र अस्ति? गुच्छः इत्युक्ते कुञ्चिकानां त्रीणि रूपाणि वदतु भगिनि कृपया.
कुञ्चिकस्य
कुञ्चिका खलु स्त्रीलिङ्गपदम्.
ओहो सोरि, कुञ्चिकायाः कुञ्चिकयोः
सम्यक् कुञ्चिकायाः कुञ्चिकयोः कुञ्चिकानां कुञ्चिकानां गुच्छः कुत्र अस्ति? सम्यक्, शारदा भगिनी.
Bhagini, sorry, I didn't understand, I mean, I missed your explanation of Vibhinna, Bhagini. Is it a Strilingapada?
Vibhinna. Padam, Kimartam itrite, Ruchihi Strilingapada.
Ruchihi Vibhinna
Bhavati. Vibhinna Bhavati.
Had it been pulling the...
like Varna. Vibhinna. Like for example varnah pushpanam varnah vibhinnah bhavati vibhinnah so atra api sarvatra vayam drashtum shaknumah grihani unnatani atricha adhyapakah kupitah vayam santushtah bahuvachanam कार्यालयः सुविशालः. सम्यक्, सर्वत्र विशेषणविशेष्यभावं. सो अत्रापि मूल्यम् अधिकम् एवमेव.
धन्यवादः,
धन्यवादः भगिनि, प्रश्नार्थं धन्यवादः. अस्तु, शारदा भगिनि.
येषु दिनेषु वस्तूनां मूल्यम् अधिकम्?
वस्तूनां मूल्यम् अधिकं, सम्यक्. त्रीणि रूपाणि भगिनि.
नपुंसकलिङ्गं भगिनि.
सम्यक् सम्यक्, नपुंसकलिङ्गं वस्तु
वस्तून् वस्तुनः वस्तून् वस्तुनो वस्तुन्योः वस्तुनोः भगिनि
वस्तुनो वस्तुनोः
वस्तुनः वस्तुनोः वस्तूनां.
सम्यक्, वस्तु इति स्त्रीलिङ्गपदम्, अतः वस्तुनः न आगच्छति. पञ्चमी षष्टि अस्ति चेत् नः, वस्तुनः वस्तुनोः वस्तूनां. दीर्घं भवति, सर्वत्र दीर्घं भवति, तत् अहं न उक्तवती, परन्तु सर्वत्र दीर्घं मति अस्ति चेत् अपि मतीना अन्य कुत्र धेनु धेनूनां हरि हरीणां पतीनां गुरूणां पितॄणां सर्वत्र दीर्घं भवति. उत्तमम्. अस्तु अस्तु नपुंसकलिङ्गपदम् अतः एवम् एवं भवति. अस्तु प्रश्नः अस्ति वा? नास्ति. अस्तु अग्रे गच्छामः. पठनं सो अत्र भाववाचकपदं वयं पूर्वं पठितवन्तः खलु. भाववाचकपदं रामः पठति, रामः पठनं करोति, रामः पाठं पठति, रामः पाठस्य पठनं करोति. सो अत्र पठनं करोति इति वदामः चेत् विभज्यप्रयोगः इति वदामः. विभज्यप्रयोगः वयं उपयोगं कुर्मः चेत् पठनम् इति पदस्य नाम अस्ति भाववाचकपदम्. भाववाचकपदम् अस्ति चेत् ततः पूर्वं कर्मपदं वा कर्तृपदं वा अस्ति चेत् तस्य षष्टिविभक्तिरूपं भवति. उदाहरणं पश्यामः. रामस्य आगमनं भवति, रामस्य आगमनं. सो बहु उत्तम उत्तमप्रयोगः. सो अत्र आगमनं क्षम्यताम् आगमनम् आगमनम् इति प्रथमा विभक्ति. वाक्यं कथं वदामः? रामस्य आगमनं भवति, इट् इस् हेपनिङ्ग्. रामास् कमिङ्ग् इस् हेपनिङ्ग्. रामस्य आगमनम् इति नपुंसकलिङ्गपदं खलु. सो अतः प्रथमा विभक्ति द्वितीया विभक्ति समानमेव भवति. कथं वदामः द्वितीयाविभक्तिरूपं? रामस्य आगमनम् अन्यकर्ता भवति. अहम् अथवा भवान् पश्यतु. रामस्य आगमनं भवान् पश्यतु. तृतीया विभक्ति कथं भवति? आगमन् रूपं कथं भवति? आगमनं तृतीया विभक्तिरूपम्
आगमने
आगमनेन किं कथं पूरयामः वाक्यम्?
आगमनेन अहं संतुष्टं
सन्तुष्टा अस्मि. आगमनेन सन्तुष्टा अस्मि, सन्तुष्टा अहं सन्तुष्टा अस्मि. चतुर्थी विभक्ति कथं भवति? आगमनाय आगमनाय
अहं प्रतिष्ठां करोमि.
प्रतिष्ठां करोमि. पञ्चमी
आगमनात्
आगमनात् आगमनेन समान अर्थकं पदम् इति वदामः. आगमनात् एवमेव वयं एवमेव वक्तुं शक्नुमः. आगमनात् सन्तुष्टा अस्ति. अन्य किं वक्तुम् इच्छति भगिनी?
अयोध्यानगरं
उत्सवमिव भवति. अयोध्यानगरम् उत्सवम् आचरति. उत्सवम् आचरति. षष्टि आगमनस्य अनन्तरं
रामस्य आगमनस्य अनन्तरं
रामस्य दट् इस् द पायिण्ट् भगिनि. सर्वत्र रामस्य इति भवति, रामस्य आगमनं भवति, रामस्य आगमनं पश्यतु. धन्यवादः उषा भगिनि. रामस्य आगमनेन अहं सन्तुष्टा अस्मि. रामस्य आगमनाय अहं प्रतिष्ठां करोमि. रामस्य आगमनात् अहं सन्तोषम् अनुभवामि. रामस्य आगमनस्य अनन्तरम् अहं
अभिषेकं भवतु.
अन्य कोऽपि किम् उक्तवती?
पट्टाभिषेकं भवति.
हा, पट्टाभिषेकं भवति. सप्तमी कथं भवति?
आगमने.
आगमने रामस्य आगमने
ट्रस्ट्
आगमने मम विश्वासः अस्ति. मम विश्वासः अस्ति, विश्वासः. ऐ हेव् ट्रस्ट् इन् हिस् कमिङ्ग्. अत्र सर्वत्र रामस्य रामस्य रामस्य, एतदेव मुख्य अंशः. षष्टिविभक्ति सर्वत्र उपयोगं कर्तुं शक्नुमः, शक्नुमः न, करणीयमेव. कुत्र इत्युक्ते एतादृशपदम्, एतादृशपदस्य नाम किं?
भाववाचकं.
भाववाचकपदम्, भाववाचकपदम् अस्ति चेत् भाववाचकपदम्, भाववाचकपदम् अस्ति चेत् षष्टिविभक्ति उपयोगं करणीयम्. अत्र रामः इति कर्ता, कर्तृपदं, परन्तु अत्र पुस्तकं, पुस्तकस्य अध्ययनम् एवमेव वक्तुं शक्नुमः. पुस्तकस्य अध्ययनं करोतु, पुस्तकस्य अध्ययनेन. अत्र पुस्तकस्य इति कर्मपदं भवति, कर्मपदं भवति, कर्तृपदम् अपि भवति. अस्तु, समयः अभवत्. सो ऐ जस्ट् डिड् एन् इन्ट्रोडक्षन्, उपस्थापनं कृतवती. अग्रे वयं पश्यामः किं करणीयम् इति, अग्रे पश्यामः. तृतीय अभ्यासात् आरभ्य वयं कुर्मः अग्रिमवर्गे. प्रश्नः अस्ति वा अत्र? आगमनम् अत्र रामस्य इति कर्तृपदम्, पुस्तकस्य अध्ययनम् इति वदामः चेत् एवमेव कर्तुं शक्नुमः. अध्ययनम्, अध्ययनेन, अध्ययनाय, अध्ययनात्, अध्ययनस्य, अध्ययने इति. अत्र
द वन् इन् द ब्राकेट् इस् वाट् वी आर् प्रवर्तनम्.
सो अत्र रामस्य 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 कर्तृपदं, बिकास् रामः इति कर्तृपदं. रामस्य पुस्तकं, पुस्तकस्य अध्ययनेन इति पुस्तकम् इति कर्मपदम्. सो वाट् यु आर् सेयिङ्ग् इस् भाववाचकपदम् अस्ति चेत् ततः पूर्वं कर्मपदं वा कर्तृपदं वा अस्ति चेत् तस्य षष्टिविभक्ति लिखतु, षष्टिविभक्तिरूपं लिखतु इति.
ओके, उत्तमं
भगिनि, उत्तमम्. अस्तु,
why is the second one karma padam bhagini?
Pustakam kalu. So what are you doing? Adhyayanam, kasya adhyayanam karoti?
Pustakasya.
Pustakasya. So pustakam is karma padam.
Object.
Object.
The studying of the book, the coming of Rama. Is it
studying of the book? Yeah. The coming of Rama. Studying of the book. The coming of Rama is कर्तृपदं. रामास् कमिङ्ग्,
द बुक्स् रीडिङ्ग्. सो वै इस् देट् कर्मपदं भगिनि? आरन्ट् बोत् सिमिलर्?
नो, बिकास् इट् इस् द रीडिङ्ग् आफ् द बुक्, पुस्तकस्य अध्ययनं.
कर्मपदस्य इस् सब्जेक्ट्,
सब्जेक्ट् कर्मपदस्य इस् दि आब्जेक्ट्. फार् एक्साम्पल् द टेकिङ्ग् आफ् द लेखनी, फार् एक्साम्पल्. लेखन्याः स्वीकरणम् लेखन्याः स्वीकरणेन सो स्वीकरणम् इस् अ भाववाचकपदम्
also that other example bhagini is also karma padam right geetam shravaneena
ah geetam shravaneena samyak so to find out to be more clear you can write it without the bhavavachaka padam pustakam patami instead of adhyayanena you can say pustakam patami pustakasya patanena pustakasya patanam karomi okay so if you write without the bhavavachaka padam vina likamah che pustakam patami athava pustakasya patanam karomi
so ramah agacchati
ramah agacchati ramah agamanam karoti then we have to say ramasya agamanam bhavati so you flip it a little bit
okay so is it a difference between a person and an object that makes it either a kartrupadam or a karmapadam
nischayana nischayana I mean okay. not really person like yeah object yeah it depends on the sentence
What's the next sentence, Bhagini? Yogyah and Ahara.
Yeah, these are all very difficult sentences, Bhagini. I don't know why they did it. Okay, so... Agrima Varge Pashyama.
Dhanyavadha, Bhagini.
Yogyah means appropriate.
Oh, Yogyah. So it'll stay the same?
Yogyasya Aharasya Sevanena, like that. Everything.
Yasya aharasya
sevanam is the bhavavachaka padam.
Right. Sevanam. So first identify the bhavavachaka padam and then convert the previous words to shashti.
Okay. Astu. Samayaha atitaha shanti mantrena samapayamaha. सविता भगिनी वदतु खलु साधारणतया वदतु भगिनि
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः
ओम् धन्यवादः
इदानीं प्रेषयामि
धन्यवादः
धन्यवादः